विष्णोर्वीर्याणि को वा कथयतु धरणेः कश्चरेणून्मिमीते यस्यैवाङ्घ्रित्रयेण त्रिजगदभिमितं मोदते पूर्णसम्पत् योऽसौ विश्वानि धत्ते प्रियमिह परमं धाम तस्याभियायां तद्भक्ताः यत्र माद्यन्ति अमृतरसमरन्दस्य यत्र प्रवाहः आद्याय अशेषकर्त्रे प्रतिनिमिषनवीनाय भर्त्रे विभूतेः भक्तात्मा विष्णवे यः प्रदिशति हविरादीनि यज्ञार्चनादौ कृष्णाद्यं जन्मयो वा महदिह महतो वर्णयेत् सोऽयमेव प्रीतः पूर्णो यशोभिस्त्वरितमभिसरेत् प्राप्यमन्ते पदं ते हे स्तोतारः कवीन्द्राः तमिह खलु यथा चेतयध्वे तथैव व्यक्तं वेदस्य सारं प्रणुवत जननोपात्तलीला कथाभिः जानन्तश्चास्य नामानि अखिलसुखकराणीति सङ्कीर्तयध्वं हे विष्णो कीर्तनाद्यैः तव खलु महतस्तत्त्वबोधं भजेयं विष्णोः कर्माणि सम्पश्यत मनसि सदा यैः स धर्मानबध्नात् यानि इन्द्रस्यैष भृत्यः प्रियसख इव च व्यातनोत् क्षेमकारी वीक्षन्ते योगसिद्धाः परपदमनिशं यस्य सम्यक् प्रकाशं विप्रेन्द्राजागरूकाः कृतबहुनुतयः यच्च निर्भासयन्ते नो जातो जायमानोऽपि च समधिगतस्त्वन्महिम्नोऽवसानं देवश्रेयांसि विद्वान् प्रतिमुहुरपि ते नाम शंसामि विष्णो तं त्वां संस्तौमि नानाविधनुतिवचनैः अस्य लोकत्रयस्यापि ऊर्ध्वं बिभ्राजमाने विरचितवसतिं तत्र वैकुण्ठलोके आपसृष्ट्यादिजन्याः प्रथमम् अयि विभो गर्भदेशे दधुस्त्वां यत्र त्वय्येव जीवाः जलशयनहरे सङ्गताः ऐक्यमापन् तस्याजस्य प्रभो ते विनिहितमभवत् पद्ममेकं हि नाभौ दिक्पत्रं यत्खिलाहुः कनकधरणिभृत्कर्णिकं लोकरूपं हे लोकाः विष्णुरेतद्भुवनमजनयत् तन्न जानीथ यूयं युष्माकं हि अन्तरस्थं किमपि तत् अपरं विद्यते विष्णुरूपं नीहारप्रख्यमायापरिवृतमनसो मोहितानामरूपैः प्राणप्रीत्यैकतृप्ताः चरतमखपराः हन्तनेच्छा मुकुन्दे मूर्ध्नामक्ष्णां पदानां वहसि खलु सहस्राणि सम्पूर्य विश्वं तत्प्रोत्क्रम्यापि तिष्ठन् परिमितविवरे भासि चित्तान्तरेऽपि भूतं भव्यञ्च सर्वं परपुरुषभवान् किञ्च देहेन्द्रियादिषु आविष्टो हि उद्गतत्वात् अमृतसुखरसं चानुभुङ्क्षे त्वमेव यत्तु त्रैलोक्यरूपं दधत् अपि च ततो निर्गतोऽनन्तशुद्धज्ञानात्मा वर्तसे त्वं तव खलु महिमा सोऽपि तावान् किमन्यत् स्तोकस्ते भाग एव अखिलभुवनतया दृश्यते त्र्यंशकल्पं भूयिष्ठं सान्द्रमोदात्मकम् उपरि ततो भाति तस्मै नमस्ते अव्यक्तं ते स्वरूपं दुरधिगमतमं तत्तु शुद्धैकसत्त्वं व्यक्तं चाप्येतदेव स्फुटम् अमृतरसाम्बोधि कल्लोलतुल्यं सर्वोत्कृष्टामभीष्टां तदिह गुणरसेनैव चित्तं हरन्तीं मूर्तिं ते संश्रयेऽहं पवनपुरपते पाहि मां कृष्णरोगात् ॐ तत्सदिति श्रीमन्नारायणीये एकोनशततमं दशकं समाप्तं श्रीहरये नमः रमा रमणगोविन्दा गोविन्दा श्रीकृष्णार्पणमस्तु।